इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। प्रधानमन्त्री नरेन्द्रमोदी द्वाविंशतितमे आसियान शिखरसम्मेलने आभासीयरूपेण भागं गृहीष्यति। अद्य भारत शिखर सम्मेलनम् विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत् प्रधानमन्त्री मोदी आसियान नेतारश्च संयुक्तरूपेण आसियान भारत सम्बन्धेष् प्रगतेः समीक्षां करिष्यन्ति। व्यापक रणनीतिं सुदृढां कर्तुम् उपक्रमेष् चर्चां च करिष्यन्ति। विदेशमन्त्री डॉक्टर एस जयशंकरः 27 अक्टूबर दिनांके कुआलालंपुर नगरे 20वें पूर्व एशिया शिखर सम्मेलने प्रधानमन्त्रिणः मोदिनः प्रतिनिधित्वं करिष्यति। प्रधानमन्त्री नरेन्द्र मोदी अद्य प्रातः 11 आकाशवाणीतः मन की बात इति कार्यक्रमे स्वीयं मनोगतं प्रकटयिष्यति। मासिकस्य आकाशवाणी कार्यक्रमस्य एतत् 27 संस्करणं भविष्यति। आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः अस्य कार्यक्रमस्य प्रसारणं भविष्यति। अयं हि कार्यक्रमः आकाशवाणी वार्ताविभागस्य अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अपि च न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। आकाशवाणी दूरदर्शन वार्ता प्रधानमन्त्रीय कार्यालय सूचना प्रसारण कार्यालयानां यूट्यूब वाहिनीभिः अपि अस्य कार्यक्रमस्य साक्षात् प्रसारणं भविष्यति। हिन्दी भाषायां प्रसारणस्य पश्चात् अस्य प्रसारणम् आकाशवाण्याः क्षेत्रीयासु भाषासु अपि भविष्यति। उपराष्ट्रपतिः सीपी राधाकृष्णन् द्विदिवसीय यात्रायै प्रस्थास्यति। उपराष्ट्रपतिः सीपी राधाकृष्णन् अद्य सेशल्स देशस्य नवनिर्वाचितस्य राष्ट्रपतेः डॉक्टर पेट्रिक हार्मिनी महोदयस्य शपथग्रहण समारोहे भागं गृहीतुं सेशल्स देशं प्रति गच्छति। शिवराज सिंह चौहानः केन्द्रीय कृषि कृषक कल्याण मन्त्रिणा शिवराज सिंह चौहानेन उक्तं यत् प्रधानमन्त्री धनधान्य कृषि योजनायां रामनाथपुरम् शिवगंगा तुतुकुडी विरुधुनगरम् जनपदाश्च समाविष्टाः सन्ति। वैद्युतक सूचना प्रौद्योगिकी मन्त्री अश्विनी वैष्णवः उक्तवान् यत् भारतं चलदूरवाणी निर्माण उद्योगे आत्मनिर्भरतां प्रति गच्छति। सः अवदत् यत् वर्षद्वये देशे चलदूरवाणी अवयवानां पूर्णं उत्पादनं देशे एव भविष्यति। रेल विभागम् अपि धारयन् केन्द्रीय मन्त्री अश्विनी वैष्णवः पत्रकारैः सह उक्तवान् यत् अस्मिन् उत्सवे वस्य ऋतौ अद्यावधि प्रायः 1.5 कोटि यात्रिणः रेलयानेन गतवन्तः। बिहार राज्ये छठ पर्व सश्रद्धं सोल्लासं पारम्परिकरीत्या च परिपाल्यते। श्रद्धालवः अद्य द्वितीय दिवसे पूजा सम्बद्ध परम्परायां खरना इति विधिः सोल्लासम् आमानयन्ति। श्रद्धालवः 36 होरात्मकम् उपवासव्रतम् आचरन्ति। अवसरेऽस्मिन् प्रधानमन्त्रिणा नरेन्द्रमोदिना जनाः अभिनन्दिताः। पुरुष क्रिकेट क्रीडायां सिडनी नगरे अन्तिमायां एकदिवसीय क्रीडायां नवस्तोभैः सह सहज विजयेन आतिथेय ऑस्ट्रेलिया दलस्य विरुद्धं तिसृणां क्रिकेट क्रीडा श्रृंखला भारतेन विजिता। रक्षामन्त्रिणा राजनाथ सिंहेन राजनाथस्य जैसलमेर नगरे थलसेना कमाण्डर सम्मेलने अनेके प्रमुखाः डिजिटल कल्याणकारिणा उपक्रमाः लोकार्पिताः। विज्ञान प्रौद्योगिकी राज्यमन्त्री जितेन्द्र सिंहः स्वास्थ्य सेवा संशोधन क्षेत्रे वैश्विक मानानि प्राप्तुं स्वास्थ्य सेवायां निजी क्षेत्रस्य सहभागितायाः प्रोत्साहनार्थं प्रयत्नानाम् उपरि बलं दत्तवान्। प्रियः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः सम्बलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः अद्य मध्याह्ने 1:30 भविष्यति। कृपया भवन्तः सर्वेऽपि शृण्वन्तु इति वार्ताः।